स्तंभे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णयन् आघूर्णज्जगदण्ड कुण्डकुहरो घोरः तवाभूत् रवः श्रुत्वायं किल दैत्यराजहृदये पूर्वं कदापि अश्रुतं कम्पः कश्चन सम्पपात चलितः अप्यम्भोजभूः विष्टरात् दैत्ये दिक्षु विसृष्टचक्षुषि महासंरम्भिणि स्तम्भतः सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो किं किं भीषणं एतत् अद्भुतमिति व्युद्भ्रान्तचित्ते असुरे विस्फूर्जद्धवलोग्र रोमविकसद्वर्ष्मा समाजृम्भथाः तप्तस्वर्णसवर्ण घूर्णततिरूक्षाक्षं सटाकेसर प्रोत्कम्पप्रणुकुम्भिताम्बरम् अहोजीयात् तवेदं वपुः व्याप्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महाजिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् उत्सर्पद्बलिभङ्गभीषणहनुं ह्रस्वस्थवीर्यस्तरग्रीवं पीवरदोषतोद्गतनख क्रूरांशुदूरोल्बणं व्योमोल्लङ्घि घनाघनोपमघन प्रध्वान निर्धावितस्पर्धाळुप्रकरं नमामि भवतः तन्नारसिंहं वपुः नूनं विष्णुरयं निहन्मि अमुमिति भ्राम्यद्गदाभीषणं दैत्येन्द्रं समुपाद्रवन्तम् आधृथाः दोर्भ्यां पृथुभ्याम् अमुं वीरो निर्गळितोऽथ खड्गफलके गृह्णन् विचित्रश्रवान् व्यावृण्वन् पुनः आपपात भुवनग्रासोद्यतं त्वामहो भ्राम्यन्तं दितिजाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवात् द्वारेथ ऊरुयुगे निपात्य नखरान् व्युत्खाय वक्षो भुवि निर्भिन्दन् अधिगर्भनिर्भरगळद्रक्ताम्बुबद्धोत्सवं पायं पायं उदैरयो बहुजहत्संहारि सिंहारवान् त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं प्रोत्सर्पत्खचरं चराचरमहो दुस्थाम् अवस्थां दधौ तावत् मांसवपाकराळवपुषं घोरान्त्रमालाधरं त्वां मध्ये सभं इद्धरोषम् उषितं दुर्वारगुर्वारवम् अभ्येतुं न शशाक कोऽपि भुवने दूरे स्थिताः भीरवाः सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकम् अस्तोषता भूयोऽपि अक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके प्रह्लादे पदयोर्नमति अपभये कारुण्यभाराकुलः शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैः अथ उद्गायतः तस्य अकामधियोऽपि तेनिथवरं लोकाय चानुग्रहम् एवं नाटितरौद्रचेष्टित विभो श्रीतापनीयाभिद श्रुत्यन्तस्फुटगीत सर्वमहिमन् अत्यन्तशुद्धा कृते तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परोलङ्घयेत् प्रह्लादप्रिय हे मरुत्पुरपते सर्वामयात् पाहि माम्। ओं तत्सदिति श्रीमन्नारायणीये पञ्चविंशं दशकं समाप्तं। श्रीहरये नमः। रमा रमण गोविन्दा गोविन्दा। श्रीकृष्णार्पणमस्तु।